अथ प्रथमोऽध्यायः प्रथमः पादः वृद्धिरादैच् अदेङ्गुणः इको गुणवृद्धि न धातुलोप आर्धधातुके ङिति च दीधिवेवीटाम् हलोऽनन्तराः संयोगः मुखनासिकावचनोऽनुनासिकः तुल्यास्य प्रयत्नम् सवर्णम् नाज्झलौ ईदूदेद्विवचनम् प्रगृह्यम् अदसोमात् शे निपात एकाजनाम् ओत् सम्बुद्धौ शाकल्यस्येतावनार्षे उयः ऊ ईदूतौ च सप्तम्यर्थे दाधाघ्वदाप् आद्यन्तवदेकस्मिन् तरप्तमपौघः बहुगणवतुडति सङ्ख्या ष्णान्ता षट् डति च तक्तवतु निष्ठा सर्वादीनि सर्वनामानि विभाषादिक्समासे बहुव्रीहौ न बहुव्रीहौ तृतीयासमासे द्वन्द्वे च विभाषाजसि प्रथमचरमतयाल्पार्धकतिपयनेमाश्च पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम् स्वमज्ञातिधनाख्यायाम् अन्तरम् बहिर्योगोपसंव्यानयोः स्वरादिनिपातमव्ययम् तद्धितश्चा सर्वविभक्तिः कृन्मेजन्तः क्त्वातोऽसुन्कसुनः अव्ययीभावश्च शिसर्वनामस्थानम् सुडनपुंसकस्य नवेति विभाषा इग्यणः सम्प्रसारणम् आद्यन्तौ टकितौ मिदचोऽन्त्यात्परः ये च इघ्रस्वादेशे षष्ठीस्थाने योगा स्थानेऽन्तरतमः उरण्रपरः अलोऽन्त्यस्य ङिच्च आदेः परस्य अनेकाल्षित्सर्वस्य स्थानिवदादेशोऽनल्विधौ अचः परस्मिन्पूर्वविधौ न पदान्तद्विर्वचनवरे यलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु द्विर्वचने चि अदर्शनम् लोपः प्रत्ययस्य लुक्ष्लुलुपः प्रत्ययलोपे प्रत्ययलक्षणम् न लुमताङ्गस्य अचोऽन्त्यादिटि अलोऽन्त्यात्पूर्व उपधा तस्मिन्निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य स्वं रूपं शब्दस्याशब्दसंज्ञा अणुदित्सवर्णस्य चाप्रत्ययः तपरस्तत्कालस्य आदिरन्त्येन सहेता येन विधिस्तदन्तस्य वृद्धिर्यस्या चामादिस्तद्वृद्धम् त्यदादीनि च एं प्राचां देशे वृद्धिराद्यन्तवदव्ययीभावः प्रत्ययस्य लुक् पञ्चदश इति प्रथमः पादः।